सर्वेभ्यो नमः, स्वागतम्। गतवर्गे वयं कथाद्वयं पठितवन्तः। तस्य प्रत्ययस्य विषये अपि पठितवन्तः, तव्यत् अपि अनियर् प्रत्ययस्य विषये। अद्य किञ्चित् गीतासोपाने कृत्वा तत् पश्यामः। अस्तु, अत्र दादा भगिनी भवती पठति वा?
वाट् शुड् ऐ रीड् भगिनी? किमपि न दृश्यति स्क्रीन् मध्ये।
क्षम्यतां क्षम्यताम्। इदानीं
नो भगिनि, श्वः कस्य जयः? उच्चैः पठत जानीत च। अद्य, श्वः, परश्वः, प्रपरश्वः, ह्यः, परह्यः, प्रपरह्यः। अद्य सोमवासरः, सोमवासरः। श्व मङ्गलवासरः, मङ्गलवासरः। परश्वः बुधवासरः, बुधवासरः। प्रपरश्वः गुरुवासरः, गुरुवासरः। ह्यः रविवासरः, रविवासर। परह्यः शनिवासरः, शनिवासरः। प्रपरह्यः शुक्रवासरः, शुक्रवासरः।
समीचीनम्। अस्तु, तत्र वारे दिनाङ्कानि सोमवासरः, मङ्गलवासरः, बुधवासरः, गुरुवासरः, रविवासरः, शनिवासरः, अपि शुक्रवासरः। अद्य किम्?
अद्य शनिवासरः,
शनिवासरः। ह्यः?
ह्यः रविवासरः।
परपरह्यः?
परपरह्यः शुक्रवासरः,
गुरुवासरः।
अद्य शनिवासरः, साटर्डे, किल? ह्यः
रविवासरः,
नो? ओके, सोमवासर नाम
मण्डे,
मण्डे। मङ्गलवासरः ट्यूस्डे,
ट्यूस्डे।
बुधवासरः
वेनस्डे, गुरुवासरः थर्स्डे, रविवासरः फ्रैडे।
न, रविवासरः
सन्डे,
सन्डे, सन्डे। प्रपरह्यः तत्र वदन्ति ह्यः रविवासरः, रविवासर नाम सन्डे, शनिवासर नाम साटर्डे, शुक्रवासर नाम फ्रैडे।
ओके, ऐ हाव् सो सन्डे अण्ड् फ्रैडे,
आमां,
मिक्स्ड् अप्।
अद्य शनिवासरः, ह्यः
शुक्रवासरः,
शुक्रवासरः। प्रपरह्यः
गुरुवासरः,
आम्। श्वः
रविवासरः,
रविवासरः। परश्वः
मङ्गलवासरः,
न,
सोमवासरः।
प्रपरश्वः,
प्रपरश्वः मङ्गलवासरः।
अत्र प्रश्नाः सन्ति वा?
नास्ति भगिनि, ऐ गाट् मिक्स्ड् अप्, सोरि।
चिन्ता नास्ति भगिनि, चिन्ता नास्ति। अस्तु, इदानीं चिन्तयन्तु, अद्य रविवासरः इति चिन्तयन्तु। अद्य शनिवासरः एव, परन्तु रविवासरः इति चिन्तयन्तु। अस्तु, श्वः कः?
रविवासरः सोमवासरः
सोमवासरः परश्वः
परश्वः मङ्गलवासरः
मङ्गलवासरः प्रपरश्वः
बुधवासरः
ह्यः
ह्यः शनिवासरः परह्यः रविवासरः
न ह्यः शनिवासरः
सारि नाट् रविवासरः शुक्रवासरः
शुक्रवासरः प्रपरह्यः
गुरुवासरः
गुरुवासरः समीचीनम् अस्तु अत्र एका कथा अस्ति अत्र कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति कौरवाणां पाण्डवानां च पक्षे महारथाः रथिकाः योद्धाः अनेके मृताः अस्तु नाम किम् एतद् वाक्यद्वयं किं वदति अर्थं वदन्तु
कुरुक्षेत्रे युद्धं चालितम् अस्ति कौरवा पाण्डवा पक्षे अनेक महारथा रथिका एवं योद्धाः मृताः अभवन् तत्कारणम्
समीचीनं कुरुक्षेत्रयुद्धमासीत् तत्र कौरवाणां पक्षे अपि पाण्डवानां च पक्षे तत्र रथाः योद्धाः सर्वे अनेके मरणं प्राप्तवन्तः अस्तु अनन्तरं सहस्रशः सैनिकाः भग्नावयवाः जाताः कर्णः अपि हतः युद्धस्य षोडशः दिवसः चिन्ताकुलः युधिष्ठिरः एवं विषीदति अस्तु सहस्रशः सैनिकाः भग्नवयवाः जाताः नाम किम्
हण्ड्रेड्स् आफ् सोल्जर्स् वेर् वूण्डेड्
कर्णः अपि हतः
कर्ण आल्सो वास् किल्ड्
कर्णस्य मरणं प्राप्तम् युद्धस्य षोडशः दिवसः चिन्ताकुलः चिन्तायाम् अस्ति युधिष्ठिरः एवं वदति अस्तु अहो
भगिनि षोडशदिवस
आम् अहो मम दौर्भाग्यम् अद्य युद्धस्य षोडशं दिनं ह्यः आचार्यद्रोणस्य दिवङ्गतिः दिवङ्गतिः नाम मरणं प्राप्तम् अस्तु तत्र युधिष्ठिरः वदति अद्य षोडशः दिवसः अस्ति अहं किं करोमि तत्र आचार्यद्रोणः अपि नास्ति सः अपि मृतः परह्यः जयद्रथस्य प्राणहानिः परह्यः जयद्रथः अपि गतवान् प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनम् प्रपरह्यः अभिमन्युः अपि मृतः तत्पूर्वं भीष्मादीनां पतनं नाम
भीष्मपितामहः पतितवान्
पतितवान् श्वः कस्य जयः कस्य पराजयः इति युधिष्ठिरः चिन्तयति श्वः कः श्वः कः जयति कः न जयति इति वयं न जानीमः. परश्वः कस्य जीवनं कस्य मरणं न जानीमः. परश्वः कः जयति कः मरणं प्राप्नोति, कः कस्य जीवनम् अस्ति कः मरणं प्राप्नो मृतः इति न जानीमः. प्रपरश्वः तदनन्तरं कस्य किं किम् इति न ज्ञातं भवति. प्रपरश्वः किं किं भवति इति वयं न जानीमः. सर्वस्य अस्य कारणं मम राज्याभिलाषः, नाम
अभिलाष राज्यस्य अभिलाषा इच्छा.
अहं राज्यम् इष्टवान्, तदर्थम् एतत् सर्वं अस्य कारणम् अहमेव इति चिन्तयति. अहमेव सर्वविधस्य क्लेशस्य हेतुः, नाम
अहम् एव सर्व दुःख कारण अहमेव.
आम्
दुःखघटनया कारणात् अहमेव इति चिन्तितवान्.
अहं कथं जीवानि हा 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 इति रोदिति. अस्तु, अत्र प्रश्नाः सन्ति वा?
नास्ति.
प्रिया भगिनी इदानीं शृणोति वा?
केन् यु हियर् मी भगिनि?
आम्.
ओके भगिनि. या ऐ couldn't hear anything, so I missed the whole story, but I'll hear it in the recording with me, no problem.
No, aham vadami tatra Kurukshetra yuddha asti tatra bahavaha pandavaha api kauravaha mrataha tat sarvam chintayitva yudhishthiraha chintakulaha api roditi saha yudhishthiraha.
Oh, okay.
Saha vadati आचार्यद्रोणः गतवान्, जयद्रथः अपि मृतः, अभिमन्युः अपि तस्य स्वर्गगमनं जातं, तत्पूर्वं भीष्मादीनां पतनम्. अहं न जानामि श्वः परश्वः प्रपरश्वः कः भवति कः न भवति इति वयं न जानीमः. सर्वं मम कारणम् अहं राज्याभिलाषः, मम राज्याभिलाष नाम अहं राज्यम् इष्टवान्, तदर्थम् एतत् सर्वं भवति इति.
ओके.
अहमेव सर्वविधस्य क्लेशस्य हेतुः नाम अहमेव तत्र सर्वे रोदन्ति किल, तस्य क्लेशस्य अहमेव कारणं, सर्वस्य क्लेशस्य अहमेव कारणम्, अहं कथं जीवामि इति सः रोदति. तत्र किमर्थम् एतदस्ति चेत् तत्र अद्य ह्यः परह्यः प्रपरह्यः तत्सर्वम् उपयोगं भवति इति.
ओके, थेङ्क् यु भगिनि.
अस्तु, अत्र कोष्टकात् शब्दान् चित्वा रिक्तस्थानानि पूरयत. अस्तु, अत्र आसीत् अस्ति भविष्यति, अस्ति इति वर्तमानकाल, इदानीं भवति. अस्तु, इदानीं कक्षा अस्ति, आसीत् न, इदानीं प्रवर्तमानम् अस्ति. अस्तु, प्रवर्तमानम् अस्ति अथवा अद्य अस्ति चेत् अद्य उपयोगं कुर्मः चेत् अस्ति इति वदामः. इदानीं प्रवर्तमानम् अस्ति अथवा अद्य अस्ति. अस्तु, प्रपरह्यः परह्यः ह्यः तत् जातं, तत् भूतकालं तत् जातम् इति वदामः चेत् आसीत्, श्वः परश्वः प्रपरश्वः भवति, श्वः अहं कक्षां गमिष्यामि, अस्तु श्वः कक्षा भविष्यति इति, अस्तु.
What is the word, Bhagini? Sorry for future tense.
अद्य मङ्गलवासरः अस्ति, ह्यः
सोमवासरः आसीत्,
सोमवासरः आसीत्, परह्यः
रविवासरः
आसीत् आसीत् प्रपरह्यः
शनिवासरः आसीत्,
समीचीनं. श्वः
सोमवारः भविष्यति,
न सोमवासरः नाम अत्र मङ्गलवासरः,
ओ
अद्य मङ्गलवासरः, श्वः
बुधवासरः
भविष्यति, परश्वः
गुरुवासरः, परश्वः गुरुवासरः भविष्यति,
प्रपरश्वः
शुक्रवासरः भविष्यति,
समीचीनम्. अत्र प्रश्नाः सन्ति वा? तत्र अद्य इति उपयोगं कुर्मः चेत् अस्ति, श्वः परश्वः प्रपरश्वः उपयोगं कुर्मः चेत् भविष्यति, ह्यः परह्यः प्रपरह्यः इति वदामः चेत् आसीत्, अस्तु. उपरि दत्तानाम् अभ्यासवाक्यानाम् आधारेण प्रश्नवाक्यानि रचयत. वयम् उक्तवन्तः किल अद्य मङ्गलवासरः अस्ति, मङ्गलवासरः कदा अस्ति? अद्य मङ्गलवासरः अस्ति, अस्तु. सोमवासरः कदा अस्ति?
सोमवासरः ह्यः अस्ति,
ह्यः आसीत्,
ह्यः आसीत्.
बुधवासरः कदा अस्ति?
बुधवासरः श्वः भविष्यति,
समीचीनम्. गुरुवासरः
एकः प्रश्नः अस्ति, सर्वे प्रश्नम् अपि अस्ति वा? तत् उत्तरमेव भिन्नं भवति वा?
प्रश्नः नाम मङ्गलवासरः कदा अस्ति इति वा?
हा हा,
मङ्गलवासरः कदा अस्ति, रविवासरः कदा अस्ति, सर्वेपि अस्ति एव. वयं न जानीमः किल श्वः अस्ति वा अद्य अस्ति वा आसीत् वा इति वयं न जानीमः, तदर्थं वयं प्रश्नं पृच्छामः, तदर्थम् अस्ति इति वयं वक्तुं शक्नुमः अत्र.
गुड् क्वश्चन् भगिनि.
अस्तु, अद्य मङ्गलवासरः, गुरुवासरः कदा अस्ति?
परश्वः भविष्यति,
समीचीनं. रविवासरः कदा भवति?
Hmm. ट्यूस्डे रविवासरः सन्डे फ्रैडे सो ह्यः
ह्यः सोमवासरः
परह्यः
परह्यः
आसीत् मङ्गल रविवासरः
आसीत् शनिवासरः कदा भविष्यति कदा आसीत्
परह्यः शनिवासरः आसीत्
शुक्रवासरः कदा अस्ति
परश्वः शुक्रवासरः भविष्यति
समीचीनम् अस्तु अत्र इदानीम् इति उपयोगम् उपयोगस्य वाक्यानि सन्ति एकं प्रियाभगिनी पठतु एकं राधाभगिनी पठतु अपि वदन्तु तत् वाक्यं किं वदति इति तत्र पूर्वम् अहं बालः आसीत् इदानीं युवकः अस्मि अत्र किं वदति चेत् अहं बालः आसीत् तदनन्तरम् इदानीम् अहं युवकः अस्मि अस्तु
ओके इदानीं कः समयः इदानीम् एकवादनम् अस्ति कः समयः अस्ति सेण्टेन्स् आल्रेडि सीम्स् वेरि सिम्प्लिफैड्
न न अत्र किं वदनीयं चेत् अत्र पुरुषद्वयमस्ति एकं प्रश्नं पृच्छति कः समयः इति द्वितीयपुरुषः वदति इदानीम् एकवादनम् अस्ति इति सः वदति अस्तु
रैट्
सो यु आर् जस्ट् एक्स्प्लेनिङ्ग् वट् दे आर् सेयिङ्ग् यु डोण्ट् नीड् टु सिम्प्लिफै वट् एवर् दे आर् सेयिङ्ग्
सो They're asking what the time is and it is 1 o'clock now. I'm not sure how
just
else to say that.
Purushadvayam asti yeka prashnam pruchati kaha samaya haiti. Dvitiha purushaha prashnam uttaram vadati idanim yeka vadanam asti.
Okay. What is Purushadvayam mean, Bhagini?
Just two people.
Oh, okay. Okay.
So we're just saying there are two people. They are talking and first one is asking a question, what is the time? Second one is answering his question saying, now it is 1 o'clock.
Okay.
Sign, Radha Bhagini, Bhavati Patatu.
आं भगिनि सैनिकाः प्रभाते शिबिरे आसन् इदानीं युद्धक्षेत्रे सन्ति प्रभाते सैनिकाः शिबिरे सन्ति इदानीं ते युद्धक्षेत्रे सन्ति
समीचीनम् अस्तु प्रिया भगिनी सुरेशः
सुरेशः पूर्वं केरले आसीत् इदानीं काश्मीरे आसीत् अस्ति सारि अस्ति सुरेशः कदा वसति इति प्रश्नं सुरेशः पूर्वं केरले वसति इदानीं काश्मीरे वसति पूर्वं केरले वसति वाट् इस् फोर् पास्ट् टेन्स् फोर् वसति
अत्र सुरेशः केरले अस्ति तदनन्तरं सः काश्मीरः आगतवान् इति.
ओके,
और यू कैन से वासितवान् आल्सो भगिनि, इज इट ओके टु
that's what I'm trying to say. Know how to say vasitavan. Okay,
anantaram radha bhagini.
Sarala pratah karyalayam gatavati idanim natya gruham gacchati. Sarala pratah kale karyalayam प्रातःकाले सः कार्यालयं गतवती, इदानीं सः नाट्यगृहं गच्छति. भिन्न भिन्नविधया अहं प्रयत्नं करोमि.
आम् आम् आम्, तत्र इदानीं किञ्चित् क्लेशः भवति. अत्र सरलवाक्यः एव अस्ति किल, परन्तु वयं कथां पठामः चेत्, सम्भाषणं पठामः चेत् तत्र एतत् अभ्यासं अत्र अभ्यासं कुर्मः चेत् तत्र सरलः भवति.
अस्तु,
पूर्वं
पूर्वं
हास्तिनपुरं धृतराष्ट्रः पालितवान्, इदानीं युधिष्ठिरः पालयति. पश्चात् परीक्षित् पालयिष्यति. पूर्वं हस्तिनापुरं धृतराष्ट्रः पालनं करोति कुर्वन्ति करोति. इदानीं युधिष्ठिरः पालनं करोति. पश्चात् परीक्षित् पालयिष्यति. ऐ गेस् मै वोकाबुलरी इस् वेरि पुवर् भगिनी, ऐ एम् नाट् एबल् टु फैण्ड् अदर् वर्ड्स् टु रीप्लेस् देम् वित्.
अस्तु, पूर्वं हस्तिनापुरं धृतराष्ट्रं पालितवान्. अस्तु, हस्तिनापुरस्य राजा धृतराष्ट्रः आसीत्, इदानीं युधिष्ठिरः हस्तिनापुरं पालयति. पश्चात् परीक्षित् पालयिष्यति.
भगिनि, ऐ हेव् अ क्वश्चन् देर्. पालितवान् इस् इट् द सेम् एस् राज्यं कृतवान्?
राजे आम्,
वि कुड् यूस् देट्.
आम्, युधिष्ठिरस्य अनन्तरं परीक्षित् पालयिष्यति.
अनन्तरं परीक्षित्
अस्तु. कोष्टकस्य साहाय्येन अष्टवाक्यानि रचयत. अस्तु, कृष्णः कुन्ती. अत्र कर्तृपदम् उपयुज्य इदानीम् अनन्तरं वाक्यमत्र. अस्तु, अत्र
शिलै त्रय भगिनि.
आम्,
कृष्णः इदानीं पूजां करोति. कृष्णः पूजां करोति, इदानीं कुन्ती खिन्नाः सन्ति.
खिन्नाः सन्ति इति
किन्नाहार्थं किं भगिनि
सेड्
सेड् ओके
अत्र पश्यन्तु एकनिमिषः अत्र अत्र कृष्णः अपि कुन्ति प्रथमपुरुषः एव किल अत्र पूजां करोति इति प्रथमपुरुषः अत्र अस्तु नास्मि इति प्रथमपुरुषः वा
नो मध्यमपुरुषः
मध्यमपुरुषः स्मरसि
मध्यम
वदत खिन्नाः सन्ति
बहुवचनं प्रथमपुरुष
प्रथमपुरुष एव परन्तु बहुवचनं तदर्थम् अत्र एकवचनमस्ति अस्तु स्मः उत्तमपुरुषः पाञ्चजन्यं धमति अत्र प्रथमपुरुषः इदानीं कृष्णः अपि कुन्ति पूजां करोति पाञ्चजन्यं धमति
कृष्णः पाञ्चजन्यं धमति कुन्ति पूजां करोति
समीचीनम् अस्तु अनन्तरम् इदानीं सेना योद्धारः अस्तु अत्र अस्ति इति प्रथमपुरुषः अपि धीराः भवन्तु अत्र सेना इति किं वचनं स्त्रीलिङ्गः
स्त्रीलिङ्गः
योद्धारः
बहुवचनं पुल्लिङ्ग बहुवचनं
समीचीनम् अस्तु इदानीं द्वयम् अस्ति अत्र भवन्तु अस्ति सेना सज्जा अस्ति योद्धारः धीराः भवन्तु अस्तु अनन्तरम् अहं वयं तत्र एतत् उत्तमपुरुषः इति वयम् उक्तवन्तः अनन्तरम् अहम् इति अस्ति चेत् किं भवति अत्र
निद्रामग्नं नास्मि
अस्तु अहं निद्रामग्नः नास्मि वयं भवतः साहायकाः स्मः अत्र वयं भवतः साहायकाः स्मः नाम किं साहायकाः नाम
हेल्पर्
आम् अथवा वयं भवतः साहायं कर्तुं सज्जा स्मः अस्तु अस्तु अनन्तरं लास्ट् वन् त्वं यूयं
क्रिया भगिनि करोतु इट्स् ईज़ि
त्वं जयं वदत यूयं त्वं द्विवचनं यूयं द्विवचनं
त्वं युवां यूयं भगिनि
युवाम् युवाम् अस्तु द्विवचनं यूयम् इस् बहुवचनम्
आम् सो यु हाव् ओन्लि टु चाय्सस्
सो यूयं जयं वदत्त एन्त्वं Is that right?
Tam smarasi Yuyam jayam vadata
Right
Tavadeva Etat eka vachanam Etat bahu vachanam Taratam eka vachanam Api eka vachanam Bahu vachanam bahu vachanam
Okay. If it is yuam, it will be vadatha, that the other tha, right, Bhagini?
Tvam
yuam.
Yetat bhavati.
Tvam yuam yuam.
Anantaram, we have an extra sentence. Khinnaha santi iti. Asta.
योधारः ओन्ली खिन्नाः सन्ति
योद्धारः धीराः भवन्तु अथवा खिन्नाः योद्धारः खिन्नाः सन्ति अस्तु अत्र प्रश्नाः सन्ति वा
सो इदानीं यूसेज् नौ
नौ नौ आं भगिनि अस्तु अत्र अस्तु अत्र यतोदाहरणं वाक्यानि रचयत पूर्वं दुर्योधनः हस्तिनापुरं कुरुक्षेत्रं पूर्वं दुर्योधनः हस्तिनापुरे आसीत् इदानीं कुरुक्षेत्रे अस्ति अस्तु इदानीम् अभिमन्युः इति अस्ति
अहं करोमि वा पूर्वः अभिमन्युः बालः आसीत् इदानीं युवकः अस्ति
समीचीनम् अनन्तरम्
शुड् ऐ डु प्रिया भगिनी भगिनि
प्रिया भगिनी भवति
ऐ केन् वि केन् आल्टर्नेट् युद्धारब्धे अर्जुनः खिन्नः सन्तुष्टः युद्धारभ्य अर्जुनः खिन्नः आसीत् इदानीं सन्तुष्टः अस्ति रैट् भगिनि दट् मीन्स् हि वास् सेड् बिफोर् अण्ड् हि इस् हेपी नौ लैक् हि वास् सेड् बिफोर् द वार् स्टार्टेड्
न न
युद्धारब्धे अर्जुनः खिन्नः आसीत्
At
the start of the war, he was sad. Now he is happy.
Okay.
Because his side is winning.
Okay. It just sounded so bad. Okay.
Or after the war.
ऋषिकेशः उत्तरप्रदेशः उत्तराखण्डः ऋषिकेशः पूर्वे ऋषिकेशः उत्तरप्रदेशः आसीत् इदानीम् उत्तराखण्डः अस्ति
उत्तराखण्डे भगिनि शुड् वी चेञ्ज् दट्
ऋषिकेशः उत्तरप्रदेशे आसीत् आम् atra pradesha saptami location right so it will be saptami
okay so both of them should be uttar pradesh and uttarakhand okay
itah purvam dvapara yugam dvapara yugam kali yugam okay itah purvam dvapara yugam asit idanim kali yugam asti
bhishmaha purvam युद्धक्षेत्रे आसीत् इदानीं शरशय्ये अस्ति नो शरशय्या अस्ति नो शरशय्ये अस्ति करेक्ट् अर्लियर् हि वास् इन् द बेटल् फील्ड् एण्ड् नौ हि इस् इन् द शरशय्या द एरो बेड् रैट् is on the arrow bed so that's why saptami correct bagini
pandavah vanam indra prashtatah purvah pandavah vane asid idanim indra प्रस्तते आसीत् अस्ति सारी प्रस्तते अस्ति
भगिनी ऐ थिङ्क् ऐ मेड् अ मिस्टेक् शय्या इस् अ फेमिनैन् रैट्
आं शय्यायाम् इति उक्तवती वा
शय्यायाम् अस्ति रैट् सारि भगिनि
न
कर्णः कर्णः सामान्यः अङ्गराजः पूर्वे कर्णः सामान्यः आसीत् इदानीम् अङ्गराजः अस्ति
अङ्गराजः अर्थं किं भगिनि
लैक् हस्तिनापुरं वास् लैक् द नेम् आफ् द प्लेस् रैट् तत्र अङ्गराजः इति आसीत् राज्यमासीत् दुर्योधनः कर्णं कर्णाय दत्तवान् तत् राज्यम्
अङ्गस्य राजः ओके अङ्गप्रदेशराजः
अङ्गप्रदेशराजः
ओके युयुत्सुः कौरव पक्षीयः पाण्डवपक्षीयः ओके पूर्वं युयुत्सुः कौरवस्य पक्षीयः आसीत् इदानीं सारि बेक्वर्ड्स् पूर्वं युयुत्सुः कौरवपक्षीयः आसीत् इदानीं पाण्डवपक्षीयः अस्ति
अस्तु समीचीनम् अनन्तरं
युयुत्सुः इस् द नेम् आफ् संथिङ्ग् भगिनि वाट् ऐ इण्टर्प्रिटेड् वन् ऐ रेड् इट् नाट् शुर्
युयुत्सु इस् द नेम् आफ् रूलर्
ओके
युयुत्सुः he was on the Kauravas side and he came to the Pandavas side.
okay.
I'm not sure if I remember correctly, but I think it's the last or last before brother of Duryodhana.
Okay.
Of the 101 children. She had, I think it's like 199.
So he
105. 100 sons and one daughter. Yeah, 100 sons, and so he would have been the 100. So Kaurava Pakshiya, Panda Pakshiya means he was on the Kaurava side, and then on the battlefield he changed sides and came to the Pandava side. गतवर्षे वयं तत् कथां पठित्वा तत्र तथ्यस्य विषये पठितवन्तः, तत् पुनः किञ्चित् पश्यामः. अस्तु, दृश्यते वा?
न भगिनि.
अत्र वयं तव्यत् अपि अन्येयकथ्यस्य विषये पठितवन्तः. तत्र तव्यत् अपि अनीयकथ्यस्य विषये किं पठितवन्तः इति चेत्, तत्र वयं कर्मणि प्रयोगे अथवा भावे प्रयोगे उपयोगं कुर्मः. तत्र वयं विधिलिङ्गकारस्य विषये न पठितवन्तः, परन्तु कर्ते प्रयोगे विधिलिङ्गकारः भवति चेत् कर्मणि प्रयोगे तव्यत् अथवा अनियप्रत्यये भवति. तत्र छात्रः अत्र सेविका कार्यं कुर्यात्, सेविकया कार्यं करणीयम् इति भवति. अत्र पासिव् वाय्स्, आक्टिव् वाय्स्, पासिव् वाय्स् इति आङ्ग्लभाषायां वदामः. अस्तु, अत्र
विधिलिङ्गे एन् आर्डर् भगिनि, प्रेरणा रिक्वेस्ट् आर् आर्डर् रैट् विधिलिङ्ग्?
आम्, इट्स् लैक् दट्.
ओकेन् सर् भगिनि, विधिलिङ्ग्
इट्स् अ लकारः भगिनि. So we're not going to talk about that, but we're focusing on just like karaniyam, lekhaniyam. And point is, you can also use it in bhave prayogah or karmani prayogah, passive voice. We'll learn more of that. Asata tavyat aniyat ani, sorry, tavyat aniyaranta padani visheshana ritya api कार्यं कुर्वन्ति. अतः विशेषणविशेष्यनियमानुसारं विशेष्यस्य लिङ्गं वचनं विभक्तिम् अनुसृत्य एव एतेषां रूपाणि भवन्ति. मीनिङ्ग्, सो दिस् फालोस् द विशेषणविशेष्यभावः दट् वि टाक्ट् अबौट्. सो इफ् यु हव् मया, सो युट् वि डूयिङ्ग् पासिव् वर्ड्स् रैट्, सो इट् विल् बि तृतीया, द कर्तृपदं विल् बि इन् तृतीया एण्ड् देन् प्रथमा प्रथमा. सो हौ वि सेट् कर्तृपदम् इन् कर्तरिप्रयोगः, कर्तृपदं प्रथमाविभक्तिः, कर्मपदं द्वितीया एण्ड् देन् क्रियापदं. सर् हि बि कर्तृपदं तृतीया, कर्मपदं प्रथमा एण्ड् देन् क्रियापदम्. अस्तु, अत्र मया पाठः पठनीयः अथवा पठितव्यः. अत्र द्विवचनमस्ति चेत् पाठौ पठनीयौ अथवा पठितव्यौ. अत्र विशेषणविशेषः अस्ति. पाठौ इति द्विवचनमस्ति चेत् पठनीयौ. avagacchanti va
not really bhagini
two lessons
ah it's two lessons then the kriya padam whatever there is that will also be in dvivachana
hmm
you know how we said in kartari kriya padam falls to subject right
mm-hmm.
So now we're just talking about remember when we talked about the adjective noun case okay we can talk it again we can talk about it again next week but it's called visheshana visheshya niyamaha athava bhavaha so what that is it's two or more words astu so that is basically there is one main noun and there are adjectives that are describing the noun
mm-hmm.
astu that is called visheshana visheshya bhavaha where you're saying all the visheshana means adjective all mm-hmm. the visheshanas all the adjectives are following the noun
mm-hmm. right
but you can't say
they'll take the same lingam vibhakti of the noun
yeah it will follow whatever rules the noun has like if okay. it's pratama it will be pratama like okay. that that's what we are doing here too patau pataha patau pataha that is the main word
okay
and then pataniyau or pataniyaha pataniyo pataniyaha we're choosing that depending on whatever the subject is there
okay
so if you have pataha pataha okay so mm-hmm. maya pataha I need to read my lesson okay maya pataha now pata is in pratama ekavachanam so we will choose pataniyaha because it is also pratama ekavachanam
okay
that is all so that is why okay. we're saying maya patah pataniyah now same thing if we have patau that is dvivachanam right
two lessons
we are saying right so for that we will have pataniyau because that is also dvivachanam prathama vibhakti
hmm माया पाठः पठनीयः can you say that in English for me once
I need to read my lesson or study my lesson
okay I need to read my lesson पाठः पठनीयः what form did you say this is for me what is the name of this
विशेषण विशेष्य नियमः और विशेषण विशेष्य भावः
okay the form that the verb takes here that does that have a name bagni
just patiyah pataniyah that is what we're talking about tavyat and aniyah this is aniyah
pratyah okay yeah that's what
this is aniyah this is tavyat
that's in passive
which one is tavyat bagni
tavyat is the one that so for tavyat you have tavya
the one below
right
okay
so yeah. it will be whatever if you have tavyat just remember that whatever comes in the name of the pratyah usually is in the verb so tavyat you have the vya so pati tavyah will be tavyat
okay
and then pataniyah
okay pato aniyar maya so aniyar is I need to read my lesson so that is actor voice then aniyar and pati
ekam shahan just keep looking at it. Give me one second.
Yeah, sure, Bhagini. tasyat so tavyat then becomes maya pati tavyah becomes the lesson was read by me
yes
okay so that becomes tasyat okay
maya is tritiya in passive voice the karta will become tritiya vibhakti
okay
so maya pata patitavya or patanya patita
okay so just in passive voice you are saying bagini so just in the anier pratyaya it will become maya it won't in the tavya
in both it will become
in both it will become right okay by maya okay
you can so this is actually kind of harder to understand because here what we're trying to say is like we've always said kriya padam doesn't have like vibhakti and everything right now we're saying kriya padam has vibhakti right so it will be confusing but the reason why we're saying that kriya padam has vibhakti is that pratyayah there's two meanings to it you can either say it is like what we're actually saying when we're saying anir pratyah is that anir pratyah we're basically saying it's formed using the anir pratyah so anir pratyah is basically like think of it as like an equation to get your form okay so what we're saying here is if you have patati and you add this anir pratyah to it you will get the form pataniyah asto so if you have pataniyah now what the pratyah has done is actually made it into a noun but it's describing an describing an action so what I'm saying here is pataniyah means need to read astu but its actual form is a noun because look pataniyah pataniya pataniyah you're saying the vibhakti right so it is technically a noun right because you can't do that with kriya padam doesn't if you have patati can you think of it as like matihi matihi mati mate does kriya padam have like lingam and everything no right so kriya padam doesn't have all of this but when you are making this into the pratyah you will get this pataniyah form right so this pataniyah form is like a verb but it is describing a verb but it is not the verb form
So is that an adverb like
you can think of it as an adverb
okay
so you can if you want to think of it as an adverb think of it like this maya patah pataniyah asti so you know that asti is the kriya padam now you have pataniyah asti okay
that makes it easier to
yeah so remember you can add asti to like literally anything that doesn't have like a regular kriya padam astu ek nimshah so a few like last time when we did the visheshna visheshya bhavah I still have the notes so we'll go over that just once so that this makes a little bit more sense अस्तु दृश्यते वा
आं भगिनि
अस्तु सो दिस् वास् लैक् द लास्ट् टैम् वि डिड् दिस् बट् ओके सो जस्ट् यु हाव् द वर्ड् मयूरः अस्तु नौ यु आर् सेयिङ्ग् मयूर मीन्स् पीकाक् रैट् सो हियर् वि आर् जस्ट् लुकिङ्ग् एट् टू वर्ड्स् एण्ड् बोत् आर् नौन्स् अस्तु फस्ट् वि विल् स्टार्ट् वित् द कामन् वन् So if we are reading a story and I'm like is there visheshana vishesha bhav here it will usually be just two nouns asu like here now we have peacock right so mayurah this is pullingah prathama vibhaktih एकवचनं रैट् यु अण्डर्स्टाण्ड् दिस् इस् पुलिङ्गः प्रथमाविभक्ति एकवचनं नौ वी हेव् नीलवर्णः सो इफ् यु वाण्ट् टु एड् नीलवर्णः टु मयूरः वुड् यु हेव् टु मेक् श्योर् हेव् टु मेक् श्योर् इट्स् पुल्लिङ्गः it is in prathama vibhakti and it is in ekavachanam you can not say neela varnau mayurah that would be dvivachanam so that will not be correct so it has to basically follow whatever the visheshanam is saying so here this is the visheshanam this is the visheshyam So if you want dvivachanam, we can say neelavarnau mayurau. Astu. Atra question. We'll do another example. So atra, mayuraha eva vayam srikurmaha. So you have mayuraha. Astu. Now we just talked about neela varnaha right we have neela varnaha mayuraha this means neela varnaha means neela varnaha mayuraha blue peacock इदानीं वि वाण्ट् से ब्यूटिफुल् ब्लू पीकाक् किं वदामः वाट् इस् द एड्जेक्टिव् फोर् ब्यूटिफुल्
सुन्दरः
अस्तु इदानीं सुन्दर इति प्रातिपदिकं नौ वि वाण्ट् इट् इन् पुल्लिङ्गः प्रथमाविभक्ति एकवचनं
सुन्दरः
सुन्दरः सो इट् विल् बि सुन्दरः नीलवर्णः मयूरः इट् विल् बि ब्यूटिफुल् आर् प्रिटि प्रिटि ब्लू पीकाक् अस्तु अत्र विशेषणं किम्
एण्ड् नीलवर्णः
आम् विशेष्यं किं
मयूरः
मयूरः सो हियर् दिस् इस् द मेन् आल् दीस् आर् डिस्क्रैबिङ्ग् this. There's two ways to think about this. You can take pretty as describing blue or the peacock, whichever makes it easier. Because Neela Varna is already describing Mayuraha. So, Yena Sundaraha describes Neela Varnaha, it's fine. But it's better to just link it to the main. So this also talks about the peacock. So here, this is the so here we only talked about one adjective, right? Now there we're talking about two. We're saying Sundaraha Neelavarnaha Mayuraha, right? So this is the this is the Visheshyam. This is the Asu. So this is the Visheshanam. This is the Visheshyam. Visheshya means the main noun. So this is the main noun. Everything is describing this. These are all the adjectives. So now this all has been for Pratama Ekavachanam Pulingaha. So what if we had to say Mayuraha, Mayuraha? What would it be?
Sundaraha Neelavarnaha Mayuraha.
Samichinam. Yes. Sundaraha Neelavarnaha Mayuraha. Now do you understand like how this works? So just whatever this thing is just called Visheshana Visheshya Bhavaha. It is just saying we are using this rule here that all the adjectives follow the forms of the noun is all we are saying. So if we're reading a story and I ask which Bhavaha are we using here? Kaha Bhavaha Trasti. And we have adjectives like this, then you have to say Visheshana Visheshya Bhavaha Atra Upayogam Kurmaha Visheshya Mayurahasti Visheshanani Sundaraha Api Neelavarnaha Santi. Astu.
So Padini, can I add Tavyat over here to the sentence, Padini? The same thing, can I add a tavyat and say Maya Sundaraha Neelavarnaha Mayuraha Drashtavyam? Is it correct?
Yes, it is correct. So here, actually very good Bhagini. So here, for tavyat, here we're not using the bhavaha or anything. It is just Drashtavyam. This you see, Maya Sundaraha Neelavarnaha Mayuraha Drashtavyam. Astu. So here the Visheshana Visheshya Bhavaha is only here. Kila. For Maya and Drashtavyam, there is nothing. So the simple sentence would be मया द्रष्टव्यम् किल. सो ह्ये द तव्यत् प्रत्ययः हेस् डजन्ट् हेव् द भावः आर् एनिथिङ्ग्. इट् इस् जस्ट् मया द्रष्टव्यम्. So
now here if I want to change this into plural, it will become maya sundaraha neelavarnaha mayuraha drishtavyaha. How do I make the
na atra pashyatu. No, what have you always said? Kriya padam follows the kartra padam. So we already made the simple sentence, right? When you say putting, you're only changing something in here, right, Bhagini? Whatever happens in here doesn't affect anything that is out of the bracket.
Okay, so then it will become sundaraha neelavarnaha mayuraha drashtavyam only.
So keep this in mind. When you have this, you are only changing something inside the bracket. Nothing, anything, if you change neela varnaha, it only affects the other words in the bracket. But it doesn't affect any of the words out of the bracket like maya or drashtavya. So that is why we always need to focus on, remember what the simple sentence is. Here it is maya drashtavya. So if you have maya drashtavya, and then you want to change whatever is inside, that is okay. You are only changing, it only affects things, the three items in the bracket. So you can always say maya sundaraha neelavarnaha mayuraha drashtavyam, or maya sundarau neelavarnau mayurau drashtavyam, maya sundaraha neelavarnaha mayuraha drashtavyam.
But that in that example that you gave there, where you are doing the partam,
we are giving an adjective for this. Here, what is the to which word are we giving an adjective?
Mayura.
Only mayuraha. So all the adjectives only concern mayuraha, nothing else. Here we are not given adjective to drashtavyam. So first, this is just adjectives for nouns. So danim, now we will see adjectives for verbs.
So in that previous example, because the pataha was being changed from singular divachanam and bahuvachanam, so the pataniyaha also changed.
Yeah, we will see that now. Astu.
Okay.
So, adjectives for verbs. Astu. Atra, this is, it is also visheshana visheshya bhavaha, because the naming of that bhavaha does not concern whether you're talking about kriyapadam or namapadam. Astu. But sometimes you can also say kriya visheshanam, meaning adjective for the verb. So for example, shikram agachatu. Agachatu. So shikram is describing agachatu. Here we'll say it is a kriya visheshanam. Now what we are looking at is, one second, let me go back and just look at the sentence. Okay, so we have maya pataha. Pataha pataniyaha pati. Okay, we'll first do aniyat patyaha, okay, so that we don't meddle with both at once. Okay, so we'll first take maya patah pataniyah. So we'll first focus on that. Okay. Asto maya patah pataniyah is a sentence. Now here we have pataniyah. Maya pataniyah is the simple sentence. Just like we said maya drashtavyam, we are saying maya pataniyah, simple sentence. Okay. Now we are adding patah. What is patah describing? Is it describing maya or is it describing pataniyah?
Pataniyah.
Because it is saying what you need to study or read, right? So it will be describing pataniyah. Now this is also kriya visheshanam. So because kriyayaha visheshanam. So here now what we are saying is patah pataniyah asu. Now if we have pataniyah, right? This has been transformed into a noun form, right? Because it is following everything of a noun. It has a vibhakti, it has a vachanam, it has a lingam, right?
So that's why you said if you are if you want to stick to a verb, say maya patah pataniyah asti, right?
So that you don't get confused.
This is always a confusion I have. Thank you so much.
So we're going to add asti. Okay, so we're going to add asti. Now maya patah pataniyah asti, right? So now whatever we change is going to affect only stuff in the bracket. Okay. So if we change patah, then we have to change pataniyah. If we change pataniyah, we have to change patah. Is it simple enough? Just like how we said here neelavarnaha mayu sundaraha neelavarna mayuraha, how if we change sundaraha neelavarna or mayuraha, it would affect the other two. Here if we change patah, it affects pataniyah. If we change pataniyah, it affects patah. Asso prashnah santhi va?
No bhagini, beautiful. Now I got the hang of it. Very nice.
We'll review this in the
The maya can be changed to any tritiya form here, bhagini, and the one in the brackets will still stay the same. So can you use a different tritiya form with this, like
Tena
patah pataniya.
Ramaya patam patani.
You can say tena patah pataniya.
So the one in the brackets is independent of the tritiya here.
Yeah.
Okay.
Yeah. Atra prashnah santhi va? What I will do this week, sorry, I was sick last week, so I couldn't send the recording. This week, I'll send both of the recordings. And also, okay. I'll try to make like a karapatram or like a PDF like explaining this one more time so that you understand.
Okay. But anyway, one question.
Mm-hmm.
So when you were explaining the previous one where you the Sundraha Neelavarnaha, you mentioned that the Sundraha can describe either the neelavarnaha or the mayuraha. How does that work, Bhagini?
No, I'm just how saying no, I'm not saying you have can describe, it's not an adjective describing neelavarnaha, but if you just want it to be simpler in your head, just saying for the form to, if you have sundara and you want to see which form you need to put it to, you can refer to neelavarnaha or mayuraha.
Oh, okay.
That
okay.
is all
you
I'm
said
saying.
Look at one or either of those two words.
Either of them, because neelavarna okay. is already following mayuraha. So sundaraha okay. can follow neelavarnaha or mayuraha.
Okay, got it. I thought you said that the one adjective can also be
No.
adjective of the other adjective. Okay. Is that possible though, Bhagini? Can you, how do you say pretty blue color?
Yeah, you could also describe another adjective. So then that would be like a visheshana vishesha bhava inside another visheshana vishesha bhava. Just trying to make it more compact.
Okay, okay. I guess we won't.
But we
there.
Can look at that next week, definitely.
Yeah. Okay, Bhagini.
Prashna ha santi va?
No, Bhagini, it was clear. Thank you, Bhagini.
No problem.
Astu. Excellent, Bhagini.
Dhanyavada. Astu. I'll also send this PDF and I'll send the other classes notes too in case you want to look at it.
Oh, okay. Thank you, Bhagini.
Dhanyavadaha namaskara.
Thank you.
Punarmilama.
Punarmilama.